वसम् न चित्रमाघ सङ्गृणीषे भामम् सेवमतीथिमद्विषेण्यम् सरासते सुनुधो विश्वधाय सोऽग्निर्होता गृहपतिः सुवीर्यम् युजानो अग्ने प्रतिहर्यमेव च विश्वानि विद्वान् वयुनानि सुक्रतो घृतानिर्निर्ब्रह्माणे गातुमेरजतव देवाजनयन्ननु व्रतम् सप्तधामानि पर्यन्नमर्त्योदासद्धासुषे सुकृते वामहस्व वीरेण रयिनाग्ने स्वाभुवायस्तानत्समिघातम् जूरस्व यज्ञस्य केतुम् प्रथमम् पुरोहीतम् भविष्मन्त यीलते सप्तवादिनम् शृण्वन्तमग्निम् कृतपृष्ठमुक्षणम् पृणन्तम् देवम् प्रेणते सुवीर्यम् त्वम् दोत प्रथमो वरेण्यस्त भूयमानो अमृताय मत्स्व त्वाम् मर्जयन् मरुतो दासुषो गृहे त्वाम् सोमेभिर्मृगभो विरुरुचुः इदम् दुगम् सुधाम् विश्वधाय संयज्ञप्रिये यजमानाय सुक्रतो अग्ने घृतस्तृतानिवर्तिर्यज्ञम् परियन् सुक्रतोयसे स्वामिधस्यावृषसोऽप्योक्तिवदूतम् गण्वानायजन्तमानुषाः त्वाम् देवामहयाय वावृधुराज्यमग्नेन वृजन्तो अध्वरे नित्वावतिष्ठावन्तवाजिनम् गृणन्तो अग्ने विदधेषु वेधसाः राजस्फोटम् यजमानेषु धारय यूयम् वातस्वस्तिभिः सदानः